एषा रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः ध्रुव भट्टराई। प्रधानमन्त्री केपी शर्मा ओली द्वासप्तत्यधिक द्विशततम विक्रमादश वैशाख मासस्य द्वादश दिवसे दुरापन्देन शक्तिशाली भूकम्पेन क्षतिग्रस्तम् सिंह प्रासादवर्तिनम् प्रधानमन्त्री मन्त्री परिषद कार्यालय सहितं पुनर्निर्मितं प्रमुख प्राशासकीय भवनम् ह्य उद्घाटयत्। राष्ट्रिय पुनर्निर्माण प्राधिकरण सम्पन्न पुनर्निर्माण सिंह प्रासादस्य पश्चिम स्वरूपम् विहाय स्वरूपत्रयम् उद्घाटयन् प्रधानमन्त्री ओली जनादेशस्य सम्मानाय प्रणाल्या रक्षाय च प्रतिनिधिसभा विघटय निर्वाचनाय गन्तुम् निर्णीतमिति अवोचत्। प्रधानमन्त्री ओली स्वस्यैव दलस्य कचिन नेतृभि अतृप्ति छाया कारणेन समानान्तर सत्ताय सञ्चालनस्य अभ्यास प्रारब्ध तदनु जनतायमेव गन्तुम् निर्णीतमिति समस्पष्टयत्। प्रधानमन्त्री ओली अकथयत् सर्वकारण आनीतानां विधेयकानां विमर्शनस्य नाम्नि संसदीय अवरोध सर्जनात्मकम् सांविधानिक निकायस्य नियुक्ति परामर्शनाय निषेध सर्जनात्मकम् विहितानां परामर्शानां श्रवण समितौ अवरोधोद्भावनात्मकम् च कार्याणि विहितानि। प्रधानमन्त्रिणा ओलिना प्रतिनिधि सभा विघटिता न भवतु इत्यपेक्षा वर्षम् विहित प्रयास असम्भव नावतीति हेतोः प्रतिनिधि सभा विघटय नवीन जनादेशाय गन्तुम् बाध्यता सृष्टिति स्पष्टीकृतम्। प्रधानमन्त्री ओली नवीन जनादेशाय गमनम् कथम् प्रतिगमनम् भवतीति प्रश्न उद्भावयन् अब्रवीत् निर्वाचनम् निर्धारित दिनांके भविष्यति। प्रधानमन्त्री ओली स्वनेतृत्वस्य सर्वकारस्य संगठनस्य त्रयाणां वर्षाणां पूर्णसावसरे सिंहप्रासादात् सम्बोधयन् अभासत सर्वकार संगठनस्य प्रथम द्वितीय वर्षयो प्रतिशतम् सप्ततोऽपि अधिकम् आर्थिक वृद्ध्यनुपातम् अधिगन्तुम् सफलता प्राप्ता वर्तते। कोरोना महामार्या पश्चात् पुनः उच्चैरनुपाते आर्थिक वृद्धि संकेतनत्वेन अर्थतन्त्रम् चलनशीलम् अस्तीति प्रधानमन्त्री ओली अकथयत्। प्रधानमन्त्री ओली कोविड महामार्या समयपि मूल्यवृद्धि प्रतिशतम् पञ्चत उच्चैर्न प्राप्तेति अब्रवीत्। प्रतिनिधि सभाया विघटनस्य विरूद्धे सर्वोच्च न्यायालये पञ्जीकारितेषु आदेशाभियाचन निवेदनेषु अद्य तु दिनद्वयम् न्यायालयस्य सहयोगिन पक्षत विमृश्यते। सर्वोच्च न्यायालयस्य सांविधानिक न्यायपीठे निरन्तरम् प्रचलति श्रवणे आदेशाभियाचन निवेदकानां पक्षत विधि व्यवसायिनां प्रत्युत्तर विमर्शनस्य ह्य समाप्तिमनु अद्य तु दिनद्वयम् न्यायालयस्य सहयोगिन पक्षत विमृश्यते। अत्रान्तरे न्यायालयस्य अपहेलन विषय चतुर्भिः पूर्व प्रधान न्यायाधीशै ह्य सर्वोच्च न्यायालये लिखित उत्तरम् प्रस्तुतमस्ति। पूर्व प्रधान न्यायाधीश अनुपराज शर्मा स्वस्य पृथक् लिखितोत्तरम् प्रस्तुतवान्। अन्ये त्रिभिः पूर्व प्रधान न्यायाधीशैश्च संयुक्त रूपेण लिखितोत्तरम् प्रस्तुतम् वर्तते। चतुर्भिः एव पूर्व प्रधान न्यायाधीशै प्रस्तुति लिखितोत्तरे आत्मभि न्यायालयस्य अपहेलनस्य अपेक्षाय संविधानेन प्रदत्ताय अभिव्यक्ति स्वतन्त्रताय मौलिकाधिकारणां प्रयोग विहित इत्युल्लिखितम् अस्ति। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देव कथयति न्यायालय विचाराधीन विषय नेपाली कांग्रेस दलेन सम्प्रति कापि धारणा ननिर्मीयते। नेपाली कांग्रेस दलस्य रूपन्देही शाखाया भैरव स्थाने ह्य आयोजितायम् विरोध सभायम् सभापति देववा अगदत् न्यायालयस्य निर्णयसनुसारेण नेपाली कांग्रेस दलस्य रणनीति निर्धारिता भविष्यति। जनप्रदर्शनस्य अनुसारेण न्यायालयेन निर्णय विधातव्य तर्हि किमर्थम् विधि इति प्रश्नम् विदधान सभापति देववा अभासत नेकपा दलस्य विवादेन कांग्रेस दले समस्या प्रारब्धा वर्तते। असौ कस्यापि संसद विघटनस्य षण्मासानाम् अनन्तरम् निर्वाचनम् अवश्यम् विधातव्यम् सदपि निर्वाचनायोगेन प्रभावकारिणी भूमिका न उडेति आलोचयत्। नेपाली कांग्रेस दलस्य धादिङ शाखा ह्य एव आयोजितायम् विरोध सभायाम् नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः न्यायालयेन प्रतिनिधि सभाया पुनस्थापना विधास्यति इत्यत्र आत्मविश्वासको स्थिति अभासत। दाङ जनपरिषद घोराई स्थाने आयोजितायम् विरोध सभायाम् नेपाली कांग्रेस दलस्य महामन्त्री डाक्टर शशांक कोइराला अवोचत वैशाख मासे निर्वाचनस्य सम्भावना नास्तीति हेतु नेपाली कांग्रेस दलेन ध्यान महाधिवेशने केन्द्रीय कर्तव्यम्। ह्य एव ललितपुरे आयोजितायम् विरोध सभायाम् नेपाली कांग्रेस दलस्य प्रवक्ता विश्वप्रकाश शर्मा नेकपा दलस्य एकेन समयेन सह मिलित्वा नेपाली कांग्रेस दलेन आन्दोलनम् न विधास्यति इति समस्पष्टयत्। नेपाल कम्युनिष्ट पार्टी प्रचण्ड नेपाल समूहस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति प्रतिनिधि सभाया विघटनस्य कार्यम् राष्ट्रस्य जनताय लोकतन्त्रस्य च हिताय नास्ति। चितवनस्य भरतपुर विमानस्थले ह्य पत्रकारै सह अध्यक्ष प्रचण्ड अवोचत् प्रतिनिधि सभायै उद्घुष्टम् निर्वाचनम् अपि न भविष्यति। अद्य विद्याय अधिष्ठात्रा सरस्वत्या पूजा राधन पुरस्सरम श्री पंचमी पर्व आयोज्यते। अस्मात् दिवसात् वसन्तर्थो शुभारम्भो भवतीति विश्वासे पर्वेतम् वसन्त पंचमी नाम्ना च आकार्यते। अद्यैव पठनयोग्याभ्यो बालबालिकाभ्यो अक्षरारम्भो विधीयते। एतदवसरे शिक्षक शिक्षार्थी चित्रकार साहित्यकार गायक नर्तक अभिनेतार स्वस्वकला साधनानाम् उपकरणानि पुस्तक पुस्तिका लेखनी वाद्ययन्त्रादीनि पूजयन्ति। इति समाचारः।